एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। सत्ता सहकारिषु दशसु दलेषु सर्वकाराय विश्वासस्य मतस्य प्रदानस्य विषये सहमतिः दृतास्ति। बाल्वाटारवर्तिनी प्रधानमन्त्रिणः सर्वकारीय निवासे ह्य उपविष्टे दशानां दलानां शीर्ष नेतृणाम् उपवेशे प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन गृहमाणस्य विश्वासस्य मतस्य पक्षे मतैक्येन प्रस्तुत्यै सहमते धृतेति प्रधानमन्त्रिणः संचार संयोजकः सूर्य किरण शर्मा अज्ञापयत्। एवमेव उपवेशे अद्य संघीय संसदि प्रस्तुयमानस्य संक्रमण कालिक न्याय सम्बद्ध विधेयकस्य राष्ट्रस्य सामयिक राजनीतिकस्य मन्त्री परिषदे पूर्णता प्रदानस्य च विषयेषु विमृष्टमिति असौ अज्ञापयत। उपवेशे प्रधानमन्त्री प्रचण्डः नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा उपसभापति पूर्णबहादुर खड्का च नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः जनता समाजवादी दलस्य अध्यक्ष उपेन्द्र यादवश्च सहभागिनः आसन्। एवमेव उपवेशे लोकतान्त्रिक समाजवादी दलस्य नेता शरद सिंह भण्डारी जनमत दलस्य अध्यक्ष सीके राउत आम जनता दलस्य अध्यक्ष प्रभु शाह नागरिकोन्मुक्ति दलस्य अध्यक्ष रंजिता श्रेष्ठ नेपाल समाजवादी दलस्य अध्यक्ष बाबुराम भट्टराई च सहभागिनः अवर्तन्त। राष्ट्रपतेः रामचन्द्र पौडेलः नेपालस्य राष्ट्रियैकतायाः प्रवर्धनम् स्वाधीनतायाः रक्षा संविधानस्य पालना संरक्षणम् चैव स्वस्य मार्गनिर्देशकः सिद्धान्तो भवतीति भासते। राष्ट्रपतौ निर्वाचयनमनु संघीय सांसदान् प्रदेशसभा सदस्यान् च धन्यवादम् व्यङ्क्तुम् ह्यो राष्ट्रपति कार्यालये आयोजिते समारोहे असौ संविधानेन प्रदत्ताम् मर्यादाम् भावनाम् च आत्मसात्कृत्य सबल शान्तेः सुशासनस्य विकासस्य समृद्धेश्च आकांक्षायाः पूर्णात्मके राष्ट्रियाभियाने सहभागितायै सदैव तत्परेण भूयते इत्यभासत। आवधिक निर्वाचनम् लोकतन्त्रस्य आधारोस्थिति भासमाणः राष्ट्रपतिः पौडेलः स्थानीय स्तर प्रतिनिधिसभा प्रदेशसभातः राष्ट्रपतेः उपराष्ट्रपतेश्च निर्वाचनम् सफलतापूर्वकम् सम्पन्नमिति कृत्वा सर्वान् भद्दापनम् धन्यवादम् च ज्ञापितवान्। राष्ट्रपति पौडेलः राष्ट्रपति संस्थया निर्वोढव्यया भूमिकया संविधानस्य शासन व्यवस्थायाश्च अभ्यासः प्रभावितो भवतीति विषये सचेष्टो भूत्वा निर्दिष्ट कार्य सम्पादनस्य क्रमे निष्पक्षताम् तटस्थताम् विधेः पालनाम् च प्रति प्रतिबद्धेन भूयते इति प्रत्यजानत। समारोहे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः प्रतिनिधिसभायाः सभामुख देवराज घिमिरे राष्ट्रिय सभायाः अध्यक्ष गणेश प्रसाद तिमलसिन्हा पूर्व प्रधानमन्त्री शेरबहादुर देउवा उप प्रधानमन्त्री मन्त्रिणः संघीय सांसदाः प्रदेशस्य मन्त्री प्रदेशसभायाः सदस्याश्च सहभागिनः आसन्। गतदिने एव राष्ट्रपतेः रामचन्द्र पौडेलः काष्ठमण्डपस्य वसन्तपुरस्थितं कुमारी गृहम् प्राप्य जीवितदेव्याः कुमार्याः दर्शनम् अकरोत्। राष्ट्रपतिम् पौडेलम् कुमारी गृहस्य अध्यक्ष गौतमरत्न साक्यः प्रतिनिधिसभायाः सदस्य सपना राज भण्डारी प्रदेशसभायाः सदस्य शैलेन्द्रमान वज्राचार्यश्च कुमारी गृहे स्वागत वचांसि व्याहरन्। तत्पूर्वम् ह्य एव कुमारी गृहस्य प्रतिनिधिमण्डलेन शीतल निवास स्थितम् राष्ट्रपति भवनम् प्राप्य राष्ट्रपतये पौडेलाय वर्धापनम् शुभकामना च व्यक्ते आस्ताम्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेश अध्यवसति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यालयस्य उपमुख्य सचिवः कृष्ण प्रसाद पौडेलः सामयिक राजनैतिक घटनाक्रमस्य विषयेषु विमृष्टुम् अद्य पूर्वाह्नस्य दशवादनाय उपवेश आउतोस्तीति अज्ञापयत्। उपवेश नयाँ वानेश्वरवर्तिनी संघीय संसद भवनस्य शंकर सभाकक्षे उपविशतीति मुख्य सचिवः पौडेलः असूचयत्। राष्ट्रिय प्रजातन्त्र दलेन संसदीय दलस्य उपनेतरी बुद्धिमान तामाङ प्रचितो वर्तते। ह्य उपविष्टेन दलस्य संसदीय दलस्य उपवेशेन दलस्य उपनेतरी तामाङ प्रचिता इति दलस्य प्रवक्ता ज्ञानेन्द्र साई अज्ञापयत। प्रधानमन्त्रिणे पुष्पकमल दाहाल प्रचण्डाय स्व चैत्रस्य षष्ठे दिवसे विश्वासस्य मतस्य प्रदानस्य विषये दलस्य अपरोपवेशेन निर्णेष्यते इति च प्रवक्ता साई असूचयत। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल समान मनोविचार वत्सु दलेषु गठबन्धनस्य सम्भावनां दर्शयति। सिन्धुपाल्चोक जनपदस्य मेलंची स्थाने ह्य दलस्य जनपदाधिवेशनम् उद्घाटयन् अध्यक्षो नेपालः स्वस्य त्रुटेः अस्वीकर्तृणा दलेन सह एकतायः सम्भवो नास्तीति उदैरयत्। संघीय विषय सामान्य प्रशासन मन्त्री अमनलाल मोदी कथयति संघीय सर्वकारीय सेवा विधेयकम् संसदः वर्तमानाधिवेशने एव प्रस्तुष्यते। नेपाल राष्ट्रिय कर्मचारी संगठनस्य सर्वकारीय मधेस प्रदेश समितेः द्वितीयम् प्रदेशाधिवेशनम् ह्य जनकपुर धामनी उद्घाटयन् मन्त्री मोदी संघीय सर्वकारीय सेवाधिनियमस्य अभावेन कतिपय महत्वपूर्णानि कार्याणि अवरुद्धानि सन्तीति विषये सर्वकारः ज्ञातो वर्तते इत्यवोचत्। मन्त्री मोदी आनेष्यमाणेन संघीय सर्वकारीयाधिनियमेन कर्मचारिणः स्वस्य वृत्त्युपार्जनम् देशम् जनताम् च प्रति अधिक दायित्ववायिनः सम्पाद्यन्ते इति विश्वासम् अभिव्यनक। मन्त्री मोदी अगदत् संघीय सर्वकारीय सेवाधिनियमस्य आनयनस्य अभावेन प्रदेशेषु कर्मचारिणाम् अभावात् सेवा प्रवाह प्रभावितः जातः इत्यतः सर्वकारेण शीघ्रमेव संसदि विधेयकमिदम् प्रस्तुष्यते, आवश्यकम् विमृश्य पारितञ्च करिष्यते। पेयजल मन्त्री अब्दुल खान वदति स्वच्छम् गुणस्तरीयञ्च पेयजलम् जनतायाः प्रतिगृहम् प्रापयितुम् सर्वकारः प्रतिबद्धो वर्तते। बांके जनपदस्य नेपालगंज उपमहानगरपालिकायाः उनविंशवडा क्षेत्रस्य कण्ठीपुरे सम्पन्न निर्माणाम् आलानगर पेयजला योजनाम् ह्य उद्घाटयन् मन्त्री खान स्वच्छ पेयजलस्य उपभोग नागरिकाणाम् मौलिकाधिकारो स्थिति अवोचत। मन्त्री खान विभेदेन विना सर्वेभ्य नागरिकेभ्य समान रूपेण पेयजलस्य पायनाय सर्वकारेण कार्यम् विधीयमानम् अस्तीति असूचयत्। त्रिभुवन विश्वविद्यालयस्य अन्तर्गतेषु महाविद्यालयेषु अद्य स्वतन्त्र विद्यार्थी समितेः निर्वाचनम् सम्पद्यमानम् वर्तते। विद्यार्थी समितेः निर्वाचनाय मतदानार्थम् अद्य प्रातः अष्टवादनात् दिवा चतुर्वादनम् यावत् समयः निर्धारितोऽस्ति। निर्वाचनाय त्रिभुवन विश्वविद्यालयस्य अन्तर्गतैः आंगिकैः प्राप्त सम्बन्धनैश्च महाविद्यालयैः सर्वमपि पूर्वकार्यम् प्रपूरितमिति त्रिभुवन विश्वविद्यालयस्य विद्यार्थी कल्याण क्रीडा निर्देशनालयस्य निर्देशकः पशुपति अधिकारी अज्ञापयत। सर्वकारस्य राजनीतिकदलानां विद्यार्थी संघटनानां च सहयोगेन आसन्न चतुर्दशानां वर्षाणां पश्चात् निर्वाचनमिदं सम्पद्यमानमस्तीति निर्देशकः अधिकारी असूचयत। कतिपय महाविद्यालयेषु विद्यार्थी संगठनेषु सहमतेर धरणस्य अभावेन निर्वाचन प्रक्रिया अग्रे वर्धितुम् सक्ता नास्ति, परम् तेषु सर्वेषु महाविद्यालयेषु यथाशीघ्रम् निर्वाचन प्रक्रियाम् प्रारब्धुम् निर्दिष्टम् अस्ति इति च निर्देशकः अधिकारी अज्ञापयत्। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्यः अर्जुन नरसिंह केसी नेपाली कांग्रेस दलम् कस्य नेतृत्वे सर्वकारे सहभागी भविष्यति इति विषये सम्प्रति निर्णीतम् नास्ति इति स्पष्टीकरोति। नेपाल प्रेस युनियन संघस्य रूपन्देही शाखाया ह्य बुटवल स्थाने आयोजिते पत्रकार सम्मेलने पूर्व मन्त्री केसी विषयेस्मिन् कांग्रेस केन्द्रीय कार्य समित्या कार्य सम्पादन समित्या च कथम् विदमपि विमर्शनम् औपचारिक रूपेण निर्णयश्चवितो नास्ति इति असूचयत। पुष्पकमल दाहाल प्रचण्डेन विश्वासस्य मतस्य ग्रहणानन्तरमेव कांग्रेस दलम् सर्वकारे कस्य नेतृत्वे सहभागी भविष्यति इति विषयो निर्णेष्यते इति च नेता केसी असूचयत। नेपाले जलसंकटस्य न्यूनीकरणात्मकान् उपायान् अन्विष्य क्रियान्वयनस्य उद्देश्येन वर्षाकालस्य जलसंकलनम् जलस्य संरक्षणम् जलवायोः परिवर्तनस्य प्रभावस्य सम्बोधनम् च इति विषयकम् राष्ट्रिय सम्मेलनम् आयोज्यमानम् वर्तते। विश्व जल दिवसस्य अवसरे पेयजल मन्त्रालयस्य समन्वयेन स्मार्ट वास सोलुशन संस्थया वाटर एड नेपालेन च अन्येषाम् विभिन्नानाम् निकायानाम् सहयोगेन दिवसद्वयव्यापी राष्ट्रिय सम्मेलनमिदम् समायोज्यमानं वर्तते इति समाचाराः।